एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभाया गतदिवसीयो उपवेशा प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य अवरोधनस्य कारणेन स्थगितोऽभवत्। उपवेश प्रारभणस्य अनुपदमेव नेकपा एमाले दलस्य सांसदै समा घोषानोचार्य अवरोधो विहिता, तदनु सभामुखेन अग्निप्रसाद सापकोटा विधेन पञ्चदश कलानां कृते उपवेश स्थगित कृत आसीत्। तत्पश्चात् पुनः प्रारब्धे द्वितीयोपवेशेऽपि नेकपा एमाले दलेन अवरोधो विहिता, तदनु सभामुख अपरोपवेशं स्वो भाद्रस्य उनत्रिंशे दिवसे दिवा एकवादने उपवेशनत्वेन अस्थगयत्। सभामुखेन अग्निप्रसाद सापकोटा विधेन संसदा उपवेशस्य संचालनस्य सम्बन्धे विमर्शनाय अद्य सर्वदलीय उपवेशः आकारितो वर्तते। अद्य दिवा सार्ध द्विवादने नयाँ मानेश्वरवर्तिनः संघीय संसद भवनस्य लोल्से सभाकक्षे सर्वदलीय उपवेशः आकारितो स्थिति सभामुखस्य सापकोटा विधस्य संचार विज्ञा श्रीधर न्यौपाने अज्ञापयत्। उपवेशे संघीय संसदि प्रतिनिधित्व कुर्वतां सर्वेषां दलानां शीर्ष नेतारः आहूताः सन्ति। प्रायः उपवेशं पुनः सञ्चालयितुं सभामुख सापकोटा ह्य एव एमाले दलस्य प्रमुख सचेतक पदीयेन विशाल भट्टराई इत्यनेन, सचेतक पदीयया शान्ता चौधरीणा, सांसदेन खगराज अधिकारिणा च सह व्यमृशत्। नेकपा एमाले दलस्य अध्यक्षा केपी शर्मा ओली संसदि मर्यादिततया प्रस्तुता भवितुं स्वीय दलस्य सांसदान् निर्दिशति। एमाले संसदीय दलस्य ह्य बानेश्वरवर्तिनः संसद भवनस्य रोल्से सभाकक्षे उपविष्टे उपवेशे अध्यक्षा ओली मर्यादिततया संसद अवरोधनस्य कार्याय निरन्तरतां प्रदातुं निरदिशत्। अध्यक्षेण ओलिना निर्धारित समा घोषानेव उच्चारयितुं स्वदलीयाः सांसदाः निर्दिष्टाः सन्ति। अध्यक्षः ओली अवोचत् ध्वनि विस्तारक यन्त्रेण ताडनम् स्कन्दे स्थित्वा मर्यादा पालकानां सुरक्षा परिधेः त्रोटनञ्च दलस्य कापि योजना नास्ति। असौ सीमाभ्यन्तरे स्थित्वा मर्यादा पालकान् परिचालयितुं सत्तापक्षमनुरुन्धानः आत्मभिः वादविवादः ईप्सितो नास्तीति स्पष्टीकृतवान्। सर्वकार विस्तारस्य विषय विमर्शनाय बाल्वाटार स्थाने ह्य उपविष्टा सत्ता गठबन्धनस्य उपवेशा किमपि न निर्णीय सम्पन्नः। उपवेशे मन्त्रिपरिषदः विस्तार, संसदि प्रस्तुतम् आयव्ययक प्रतिस्थापन विधेयकम्, सामयिक राजनीतिक घटनाक्रमश्चेति विषयेषु विमृष्टमिति उपवेशे सहभागी नेपाली कांग्रेस दलस्य महामन्त्री पूर्णबहादुर खड्का अज्ञापयत्। विमर्शने प्रधानमन्त्री शेरबहादुर देउवा, नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड, नेकपा एकीकृत समाजवादीन अध्यक्ष माधव कुमार नेपाल, जनता समाजवादी दलस्य केन्द्रीय अध्यक्ष उपेन्द्र यादव, राष्ट्रिय जनमोर्चा दलस्य उपाध्यक्ष दुर्गा पौडेलश्च सहभागिनः आसन्। नेकपा एकीकृत समाजवादी दलेन बागमती प्रदेशस्य मुख्यमन्त्रिणः अष्टलक्ष्मी शाक्यस्य नेतृत्वस्य सर्वकाराय समर्थनम् नास्तीति विषयः प्रदेश सभा सचिवालयाय ज्ञापितो वर्तते। ह्य एकीकृत समाजवादी दलस्य बागमती प्रदेश संसदीय दलस्य उपवेशेन दलस्य नेतरी राजेन्द्र पाण्डेभिरम् प्रचित्य शाक्य नेतृत्वस्य सर्वकाराय समर्थनम् नास्तीति निर्णयम् विधाय विषयोऽयम् प्रदेश सभा सचिवालयाय ज्ञापितः इति एकीकृत समाजवादी दलस्य नेता माधव प्रसाद पौडेलः अज्ञापयत्। नेकपा एमाले दलस्य षट्पञ्चाशतः प्रदेश सभा सदस्यानां मध्ये त्रयोदश सदस्याः नवसंगठितम् एकीकृत समाजवादी दलम् प्रविष्टाः सन्ति। नेकपा एमाले दलात् नेकपा एकीकृत समाजवादिनः अभिलेखे स्वनाम अद्यावधिकी कर्तुं सर्वोच्च न्यायालयं प्राप्तौ द्वौ सांसदौ तत्कालं किमपि न दण्डयितुं सर्वोच्च न्यायालयेन अल्पकालिक अन्तरिमादेशः प्रदत्तो वर्तते। न्यायाधीशस्य मीरा खड्का विधायः एकल न्यायपीठेन स्व भाद्रस्य उनत्रिंशे दिवसे विमर्शनाय पक्षद्वयमेव आकारयितुम् आदिश्य एतत्कालपर्यन्तम् किमपि न दण्डयितुम् इह आदिष्टमस्ति। सांसदाभ्याम् सोम प्रसाद पाण्डे, शारदा देवी भट्टाभ्याम्, आत्मभ्याम् नेकपा एकीकृत समाजवादी दले स्थितम् इत्यतः एतस्मिन्नेव दले सत्यापन विधातव्यमिति अभियाच्य सर्वोच्च न्यायालये निवेदनम् पञ्जीकारितम् आसीत्। अर्थमन्त्री जनार्दन शर्मा गदति राजस्वस्य वर्धनत्वेन संसद समक्षम् प्रतिस्थापन विधेयकम् प्रस्तुतम् वर्तते। प्रतिस्थापन विधेयकम् स्पष्टीकर्तुम् इह अर्थमन्त्रालये आयोजिते पत्रकार सम्मेलने अर्थमन्त्री शर्मा अगदत् केवलम् नामांकिताः स्रोतसाम् सुनिश्चयविहीनाः आयोजकनाः स्थगितीकृत्य धनसञ्चयनस्य वर्धनत्वेन आयव्ययकम् संशोधितम् वर्तते। अर्थमन्त्री शर्मा अकथयत् पुनस्थापन विधेयकस्य माध्यमेन अतिविपन्न जनतायै अपाङ्गतायुतेभ्यः आहते सरकारेभ्यः राजनीतेः परिवर्तने प्रापितयोगदानेभ्यः परिवारेभ्यश्च सहयोगप्रापणत्वेन आयव्ययकम् संशोधितमस्ति। प्रतिस्थापनविधेयकम् नानीय अध्यादेशस्यैव पारितीकरणाय पूर्वकार्यम् विहितम् सदपि प्रतिपक्षिदलस्य असहमतेः कारणेन दिनद्वयावधि समयम् व्ययीकृत्य आयव्ययके सामान्यतया सुधारम् कृत्वा प्रतिस्थापनविधेयकस्य आनयने आत्मनः बाध्यतासीत् इति च अर्थमन्त्री शर्मा समस्पष्टयत्। पत्रकार सम्मेलने राष्ट्रिय योजनायोगस्य उपाध्यक्षेण डा विश्वनाथ पौडेलेन नेपाल राष्ट्रकोषस्य अधिशासकेन महाप्रसाद अधिकारिणा अर्थसचिवेन मधुकुमार मरासिनी इत्यनेन च पत्रकाराणां प्रश्नाः उत्तारिताः आसन्। एमसीसी नामिकायाः अमेरिका देशीय सहयोग परियोजनायाः उपाध्यक्षा फातिमा सुमार संविधेयं प्रतिनिधिसभया शीघ्रम् अनुमोदयिष्यते इति विश्वासं व्यनक्ति। नेपालस्य चतुर्दिवसीयं भ्रमणं प्रपूर्य स्वदेश प्रस्थानात् प्राक् ह्यः काष्ठमण्डपे आयोजिते पत्रकार सम्मेलने उपाध्यक्षा सुमार अवदत् एमसीसी संविधया नेपाल अमेरिका देशयोर्मध्ये त्रिसप्तत्या वर्षै विद्यमानौ सहकार्य सहयोगौ इतोऽपि सुदृढौ भविष्यत। उपाध्यक्षा सुमार नेपालस्य आर्थिक सामाजिक रूपान्तरणं केन्द्रे निधाय नेपाल सर्वकारेण स्वयमेव अर्धदशकादपि अधिक कालस्य वार्ता विमर्शनयोः पश्चात् वर्ष पञ्चकात् पूर्व अमेरिका देशेन सह विहिताम् एमसीसी संविधान क्रियान्वेतुम् नेपालस्य राजनैतिक दलानां मध्ये मतैक्यम् धरिष्यते इत्यत्र आत्मनः विश्वासोस्तीति अभासत। उपाध्यक्षा सुमार एमसीसी संविधायं नानुमोदितायं सत्यमपि अस्माकं सुमधुर सम्बन्धे कोऽपि प्रभावो न स्रक्षते इत्यगदत्। आराष्टमिह सहस्रं त्रयोविंशत्यधिक चतुश्शतं च जना कोरोना संक्रमणात् मुक्ताः सन्ति। एकादशाधिक नवशते जनेषु संक्रमणं पुष्टिभूतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण कोरोना विषाणो संक्रमणेन गतदिने त्रयोदश जना मृता। मन्त्रालयस्य अनुसारेण इदानीम् आराष्ट्रं कोरोना विषाणो षड्विंशति सहस्राणि सप्तपञ्चाशदधिक सप्तशतञ्च सक्रिय संक्रान्ता जना सन्ति। एतेषु चतुःपञ्चाशदुत्तर चतुःशतस्य सघनोपचार कक्षेषु चत्वारिंशदधिक शतस्य च जनानां कृत्रिम श्वास प्रश्वास करणेषु च उपचारः विधीयमानो वर्तते। संख्वासभा जनपदस्य सामयिक हत्याकाण्डस्य आरोपी लोकबहादुर कार्की प्रहरेणा ह्य सार्वजनिकृतो वर्तते। प्रहरेणा परह्य नियन्त्रितः षड्विंशति वर्षीय कार्की ह्य पत्रकार सम्मेलनं विधाय सार्वजनिकृतोऽस्ति। लोकबहादुर इत्यनेन गत सोमवासरे संख्वासभा जनपदस्य मादी नगरपालिकायाः प्रथमवडा क्षेत्रस्य खोलाग्रामे तेजबहादुर कार्किणा सहितानां तस्य परिवारस्य षण्णां जनानां विभत्सतया हत्या विद्यते स्वीकृतमिति संख्वासभा जनपदस्य प्रहरी प्रमुख लालध्वज सुवेदी अज्ञापयत्। घटनायाः अनुसन्धानस्य क्रमे हत्यायाम् एकस्यैव जनस्य संलग्नता दृष्टेति असौ अवोचत्। प्रारम्भे तेजबहादुर इत्यस्य अनन्तरं परिवारस्य अन्येषां जना सदस्यानां च हत्या विहितेति लोकबहादुर इत्यनेन स्वीकृतमस्ति। अभियुक्तेन लोकबहादुर इत्यनेन शीघ्रं क्रोध प्रकटनस्य आक्रामक स्वभावस्य च समस्यया औषधं सेव्यमानं वर्तते। ओखलडुङ्गा जनपदे ह्यः जीपयाने दुर्घटिते सति एको मृता नवजना आताश्च सन्ति। माने भञ्जाङ ग्रामपालिकायाः षष्ठवडा क्षेत्रवर्तिनी मितेरी भञ्जाङ स्थाने दुरापन्नायां जीवयान दुर्घटनायां बारा जनपदस्य चत्वारिंशत् वर्षीय पृथ्वीबहादुर श्रेष्ठ घटनास्थले एव मृत इति ओखलडुङ्गा जनपद प्रहरी प्रमुख गोविन्दराज काफले अज्ञापयत्। आहतानां नवानां जनानां मध्ये गभीरेण आहता पञ्चजना उपचाराय हेलिकप्टर यानस्य माध्यमेन काष्ठमण्डपम् आनीताः सन्ति। बागलुङ जनपदे प्रसिद्ध शक्तिपीठेन कालिका भगवत्या सहितानि सर्वाणि मठ मन्दिराणि अद्यतः साधारण जनानां कृते उद्घाट्यन्ते। जनपद कोविड 19 संकट व्यवस्थापन केन्द्रस्य ह्यस्तनोपवेशेन जनस्वास्थ्यस्य मापदण्डं पूरयित्वा मठ मन्दिराणि उद्घाटयितुं निर्णीतं वर्तते।